ಸರ್ವೇಭ್ಯ ನಮಸ್ಕಾರ. ಅದ್ಯ ಸಿದ್ಧಾಂತ ಕೌಮುದ್ಯಾಹ ಅಜಂತಪುಲಿಂಗ ಪ್ರಕರಣೆ ಏಕವಿಂಶಃ ಭಾಗ. ಫೆಬ್ರವರಿ ಮಾಸಸ್ಯ ಶಿಕ್ಷಮ್ಯತ ಮಾರ್ಚ್ ಮಾಸಸ್ಯ ಸಪ್ತಮಃ ದಿನಾಂಕಃ. ಏನಾಕ್ಷರ ಸಮಾಂ ವಾಣಿಮಧಿಗಮ್ಯ ಮಹೇಶ್ವರ ಕೃತ್ಸ್ನಂ ವ್ಯಾಕರಣಂ ಪ್ರೋಕ್ತಂ ತಸ್ಮೈ ಪಾಣಿನಯೇ ನಮಃ. ವಾಕ್ಯಕಾರಂ ವರರುಚಿಂ ಭಾಷ್ಯಕಾರಂ ಪತಂಜಲಿಂ ಪಾಣಿನಿಂ ಸೂತ್ರಕಾರಂ ಚ ಪ್ರಣತೋಸ್ಮಿ ಮುನಿತ್ರಯಂ. ಮುನಿತ್ರಯಂ ನಮಸ್ಕೃತ್ಯ ತದುಕ್ತಿಃ ಪರಿಭಾವ್ಯ ಚ ವೈಯಾಕರಣ ಸಿದ್ಧಾಂತ ಕೌಮುದೇಯಂ ವಿರಚ್ಯತೆ. ಇಕಾರಾಂತಃ ಪುಲ್ಲಿಂಗಃ ಸಮಾಪ್ತಃ. ಕೋಪಿ ಸಂದೇಹಃ ಅಸ್ತಿ ಚೇತ್ ಪೃಚ್ಛ್ಯತಾಂ. ಈಕಾರಾಂತಃ ಪುಲ್ಲಿಂಗಃ ಈಕಾರಾಂತ ಪುಲ್ಲಿಂಗೇಷು ವಸ್ತುತಃ ಅಸ್ಮಾಭಿಃ ಜ್ಞಾತಃ ಅಥವಾ ಪ್ರಯೋಗೇ ಸುಪರಿಚಿತಃ ಶಬ್ದಃ ನ್ಯೂನಃ ಏವ. ದೇರ್ ವೆರಿ ವೆರಿ ಫ್ಯೂ ಈಕಾರಾಂತ ವರ್ಡ್ಸ್ ವಿಚ್ ಆರ್ ಇನ್ ಕಾಮನ್ ಯೂಸ್ ಇನ್ ಲಿಟ್ರೇಚರ್ ಆರ್ ಇನ್ ಕಾಮನ್ ಲ್ಯಾಂಗ್ವೇಜ್. However, there are several different types among ikarantas. So, it is not like, say, ikarantas where you can take Hari Shabda as the standard, and there are few variations from that. Similarly, if you go to akarantas, you take Rama Shabda as the standard and there are few variations. But in ikarantas, there are actually four or five major types, and you have to decide which category each Shabda goes into and then see how the forms go. Okay. So ikarantas are a challenge because you have to learn both the forms and the prakriya. When I was studying, when we entered ikarantas, I knew I think only one shabda, which is sudhi shabda. I didn't know any of the other shabdas which we came across here. So you have to know the words, the prakriya, and also the forms. Right? Tatraadu ikaranteshu vataprami shabdha dattaha dikshitaihi. ವಸ್ತುತಃ ವಾತಪ್ರಮಿ ಶಬ್ದಸ್ಯ ದ್ವೇಧಾ ವ್ಯುತ್ಪತ್ತಿ ಪ್ರದರ್ಶ್ಯತೆ. ದ ವರ್ಡ್ ವಾತಪ್ರಮಿ ಇಟ್ ಸೆಲ್ಫ್, ದಟ್ ಇಸ್ ದ ಪ್ರಾತಿಪದಿಕ ಇಟ್ ಸೆಲ್ಫ್, ಕ್ಯಾನ್ ಬಿ ಡಿರೈವ್ಡ್ ಇನ್ ಟೂ ವೇಸ್, ಅಂಡ್ ದ ಫಾರ್ಮ್ಸ್ ಆಫ್ ದ ಪ್ರಾತಿಪದಿಕ ವಿಲ್ ಆಲ್ಸೋ ಡಿಪೆಂಡ್ ಆನ್ ವಿಚ್ ಡಿರೈವೇಷನ್ ಯು ಆರ್ ಟೇಕಿಂಗ್. ಸೊ ವಾತಪ್ರಮೀಹಿ ಇತಿ ಉಣಾದಿ ಸೂತ್ರೇಣ ಮಾಂಗಃ ಈ ಪ್ರತ್ಯಯ ಇತಿ ಪ್ರಥಮ ವ್ಯುತ್ಪತ್ತಿ ದರ್ಶಿತ ದೀಕ್ಷಿತೈ. ಕಥಂ ಇತಿ ಚೇತ್ ವಾತಂ ಪ್ರಮಿಮೀತೆ ಇತ್ಯರ್ಥೆ ಮಾಂಗ್ ಮಾನೆ ಇತಿ ಧಾತೋ ಔಣಾದಿಕಃ ಈ ಪ್ರತ್ಯಯ. ಸೊ ದಿಸ್ ಇಸ್ ದ ಡಿರೈವೇಷನ್ ಆಫ್ ವಾತಪ್ರಮಿ ಇಟ್ ಸೆಲ್ಫ್. ಹೌ ಡು ವಿ ಗೆಟ್ ದ ವರ್ಡ್ ವಾತಪ್ರಮಿ? ವಾತಂ ಪ್ರಮಿಮೀತೆ ಇತಿ ಅರ್ಥಃ ಇತಿ ವಿಗ್ರಹ. ವಾತ ಇತಿ ಉಪಪದಂ, ಪ್ರ ಇತಿ ಉಪಸರ್ಗಃ, ಮಾಂಗ್ ಮಾನೆ ಇತಿ ಧಾತುಃ. ದಿಸ್ ಇಸ್ ಎ ಧಾತು. ಮಿಮೀತೆ ಮಿಮಾತೆ ಮಿಮತೆ ಜುಹೋತ್ಯಾದಿ ಗಣೆ ತೃತೀಯ ಗಣಸ್ಥಃ ಧಾತುಃ ಆತ್ಮನೇಪದಿ ಅನಿಟ್ ಇತಿ ಧಾತೋಃ. ಸೊ ಯು ಹ್ಯಾವ್ ವಾತ ಪ್ರ ಮಾ ಇತ್ಯಸ್ತಿ, ತಸ್ಮಾತ್ ಧಾತೋಃ ಈ ಇತಿ ಪ್ರತ್ಯಯಃ ಕ್ರಿಯತೆ. ಸೂತ್ರಂ ಭವತಿ ವಾತಪ್ರಮೀಹಿ ಇತ್ಯೇವ. ಸೊ ವಾತಪ್ರಮೀಹಿ ಇದನ್ ಉಣಾದಿ ಸೂತ್ರ. ವಿ ಹ್ಯಾವ್ ಕಮ್ ಅಕ್ರಾಸ್ ದ ಟರ್ಮ್ ಉಣಾದಿ ಎ ಫ್ಯೂ ಟೈಮ್ಸ್ ಅರ್ಲಿಯರ್. ಉಣಾದಿ ಸೂತ್ರ ದರ್ ಅ ಸೆಟ್ ಆಫ್ ಪ್ರತ್ಯಯಸ್ ವಿಚ್ ಆರ್ ಯೂಸ್ಡ್ ಫಾರ್ ಡಿರೈವೇಷನ್ ಆಫ್ ಮೆನಿ ಕಾಮನ್ ವರ್ಡ್ಸ್ ಇನ್ ಸಂಸ್ಕೃತ್. ಸೊ ದೇರ್ ಆರ್ ಟೂ points of view about unadis. Okay, so there is one point of view which considers that whichever words are derived from unadi pratyaya, they are all avyutpanna. Unadini avyutpannani ityekah pakshah, unadini vyutpannani ityaparah pakshah. Unadini vyutpannani iti pakshe, if you are considering that unadis are also derived, tada unadi sutrani iti santi. There are set of sutras which are called unadi sutras. Those sutras, like Paninian sutras, they give suffixes. Mostly they are just customized sutras for each word. For example, this particular sutra is there to derive the word Vataprami, that's all. So it says that to derive the word Vataprami, you have to add an E pratyaya, the suffix E, to Madhatu, which is preceded by a Pra Upasarga, when Vata is the Upapada. So very specific. Right. So they are all Unadi Sutras. Panini says Unadayo Bahulam in one of his books. So he accepts that there are words which are called Unadis. Okay. But are they derived from Dhatus or are they underived ready-made forms? That is a point of contention. So there are both points of view are used, points are there. So Tritiya Dhyaya Tritiya Pade Kridanteshu. So Panini includes this sutra in Kridantas. So that is why we consider Unadi is also as Kridantas. 331 is the sutra number. But yeah, so there are both points of view. Either way, we'll see how it is derived. We don't need, this is not the our major focus, but we do need to know this derivation because our Subanta Prakriya will depend on how it is derived. Right? So, Idanim Kim Abhut, Vata Prama E Iti Pratyaha. Such a kit iti dikshitaihi uktam. So Dikshita has said that it is kit. Why he specifies it? Because if the pratyaya happens to be kit, the akara gets deleted. And akara of the dhatu, ma ityatraya akara, tasya akarasya atolopa iticha iti sutrena lopaha kriyate. So vata pra mu e. Vata prami iti pratipadikam. Ashvaha ityartha. Vatam prami mite. That which measures the speed of wind. Vataha nama vayuhu. So this is a horse which runs at the speed of wind. That is the tatparya. Vata pramihi ityukte ashvaha ityartha. So now you have vata prami, which is a pratipadika, which has been derived from madhatu by using an unadi pratyaya called e. Right? That is all you have to remember. Okay? So this e which you are hearing is from a suffix. That is the major point. Right? So, idanim kim bhavati? Vata prami ityasmati supratyaya kriyate. Kimapi na bhavati? Ruttvam visargaha. Yatha ramaha, yatha harihi, yatha vishvapaha. Sasajushoruhu ityanena ruttvam. Kharvasanayor visarjaniyaha ityanena visargaha. Vata pramihi. Iti prathama vibhakta ityanena ruttvam. Bahu sulabham. Vata prami shabdase prakriyayam. Kimapi nasati vastra. Vata prami au. Kim bhavati? What should happen? Vata prami au itisthite kim bhavet? Prathamayoh Purvasambhavah. Okay. Yes, Vasuji. Yanadesha. Okay. Why not Prathamayoh Purvasambhavah? Prathamayoh Purvasambhavah. अकह प्रथमा द्वितीययोः अचि पूर्वसवर्ण दीर्घः एकादेशः स्यात् करेक्ट नादिचि आत् अकारः आकारः नास्ति अवर्णादिचि परे पूर्वसवर्ण दीर्घः न स्यात् सो नादिचि विल नॉट अप्लाई हियर Which is the other sutra for Nishedha of Purva Savarna Dirgha? Sutra Dvayam Vidyade, Purva Savarna Dirgha Nishedhartha. Ekam to Nadiji, Uttrana Bhavati. Aparam Sutram? Uttam. No, it's correct. I mean, what said first was right. Dirghat Jasicha. Dirghat jasi ichicha pare purvasavarna dirghah na syat. Whenever it's a dirgha is followed by jas or ich, then there is no purvasavarna dirgha. Tasmadatra purvasavarna dirghah na bhavati yatha vasu mahodayena uktam tatha dirghat jasi cha iti nishedhat purvasavarna dirgho na talabhave ikoyenasi iti anadeshe vata pramyau. So in vyakarana, studying vyakarana, it is important to know why not something else? Because that's a question which they will ask. It's easy to say, okay. If you know the form, you can say, okay, and you get the form. But why not something else is also important. Right? So, vata pramihi, vata pramyau, vata pramyaha. Vata prami jas, tatrapi nishedhahasti, dirgha jasicha. Purasarana dirghahana bhavati, yanadeshe rutve visarge vata pramyaha. हे वात प्रमेहि हे वात प्रम्यो हे वात प्रम्यः आतप्रमी अम् किं भवति अमिपूर्वः सत्यम् अमिपूर्वः इत्यनेन पूर्वरूपे वातप्रमीम् नेक्स्ट् शस् प्रत्यये परे दिस् आर् आल् कामन् ऐ मीन् वाट् वी हव् स्टडीड् सो फार् देर् इस् नथिङ्ग् न्यू इन् वातप्रमी शब्द एक्चुलि देर् नथिङ्ग् न्यू अट् आल् शस् प्रत्यये परे किं भवति अत्र प्रथमयोः पूर्वसवर्णः इत्यनेन पूर्वसवर्णदीर्घः भवितुमर्हति यतोहि दीर्घात् जसि इचि जस् अपि नास्ति इज्वर्णोऽपि नास्ति तस्मात् पूर्वसवर्णदीर्घस्य कोऽपि निषेधः नास्ति प्रथमयोः पूर्वसवर्णदीर्घः इत्यनेन पूर्वसवर्णदीर्घे तस्मात् छसो नः पुंसि इत्यनेन नत्वे वातप्रमीन् सो वातप्रमीं वातप्रम्यौ वातप्रमीन् Why do we not have a natva here? Repha. Pra ityatra repha asti. Agre akaraha at. Makaraha pavargaha. Ikaraha at. Nakaraha asti. Atkupvangnum vyavayepi. Ityanena natvam kutona bhavati. सूजि हा रैट् सो पदान्ते नकारः अस्ति चेत् नत्वं न भवति सो जनरल् रूल् पदान्तस्य इति निषेधात् पदान्ते विद्यमानस्य नकारस्य नत्वं न भवति वातप्रमीन् वातप्रमीं वातप्रम्यौ वातप्रमीन् वातप्रमी अपि नास्ति कोर्णचीतियणि वातप्रम्या वातप्रमीभ्यां वातप्रमीभिः There is nothing, no prakriya, I mean, nothing to specify. So everywhere you get the ikoyanasi iti anadesha, bhyami bhisi bhyasi kim api nasti. So vata pramye, ngasi ngasohu, vata prami as iti asti, anadeshe vata pramyas, prutvam visargaha vata pramyaha, vata pramyohu, vata prami os, yan prutvam visargaha vata pramyohu. Next, Vataprammyam, why do we not have Nut here, like we have Ramanam, Harinam, Kutaha Nudagamaha Nakritaha, सूत्रं भवति तस्य ह्रस्वनद्यापो नुट् ह्रस्वान्तात् नद्यन्तात् आबन्ताच्चाङ्गात् परस्य आमः नुडागमः स्यात् इति सूत्रार्थः वातप्रमी आम् ह्रस्वः नास्ति अस्य नदीसंज्ञा नास्ति आबन्तत्वमपि नास्ति तस्मात् नुडागमः न भवति देर् इस् नो नुट् सो यु जस्ट् डु वातप्रमी आम् इति स्थितेपि यण् इको यणसि इति यणादेशः वातप्रम्याम् सो वाट् शुड् बि The form in Saptami Ekavachana. Vataprami I. It is thite kim bhavati. Tatraiva dikshite he dattam. Dirghatvat na nut. Aam prateye shashti bahuvachane. Harasvaha nasti ataha nudagamaha na bhavati. Vataprami I. Kim bhavati. सवर्णदीर्घ किमपि विशिष्टं सूत्रं नास्ति सो अकस्सवर्णे दीर्घः इत्यनेन सवर्णदीर्घे वातप्रमी इत्येव रूपं सो इट् इस् सप्तमी एकवचने अपि मातप्रमी इत्येव रूपम् अश्वे इत्यर्थः मातप्रमी वातप्रम्योः वातप्रमीषु सो दिस् पर्टिक्युलर् शब्द इस् वेरि सिम्पल् सो वेर् द ईकार हेस् नाट् बीन् डिरैव्ड् फ्रम् अ धातु or it's not a strilinga. So generally when the ikara belongs to a pratyaya, the forms are very simple. You have been asked, sadharanataya eko enachiti anadesho bhavati, anyatra shasi purva chavarna dirghaha tavadeva, anyah kopi visheshaha nasti. Evam yayi papyadayaha, etadashaha shabdaha parepisanti, yayi papi ityadi udahannani dikshitaya. Yanti anena iti yayihi, ययीहि इत्युक्ते अनेन यान्ति येन करणेन दट् इन्स्ट्रुमेण्ट् आर् दट् थ्रू विच् आर् बै विच् पीपल् केन् गो ययीहि या धातोः निष्पन्नः मार्गः इत्यर्थः ययीहि यय्यौ यय्यः इत्यादिरूपाणि पाति लोकं लोकं रक्षति इत्यर्थे पपीः सूर्यः इत्यर्थः सो देर् आर् अदर् वर्ड्स् ईकारान्तशब्दाः पपीः पप्यौ पप्यः इत्यादि रूपाणि यापोः किद् द्वे च इति ई प्रत्ययः सो दीस् आर् आल्सो ययी एण्ड् पपी आर् आल्सो डिरैव्ड् फ्रम् आर् आल्सो उणाद्यन्तास् देर् आर् डिरैव्ड् फ्रम् आडिङ्ग् एन् ई सफिक्स् टु या एण्ड् पा बै द सूत्र यापोः किद् द्वे च ओके सो वातप्रमी शब्दः अत्रापि कोऽपि विशेषः नास्ति सो वेन् वि आर् डिरैविङ्ग् एस् ऐ टोल्ड् वातप्रमी इति शब्दस्य द्वेधा व्युत्पत्तिः प्रदर्श्यते यदा प्रथमा व्युत्पत्तिः अर्थात् औणादिक ईप्रत्ययान्तः वातप्रमी शब्दः तदा सर्वत्र इको एणति इति अणादेशः दट् इस् आल् विबन्तवातप्रमी शब्दस्य तु अमि शसि णौ च विशेषः So then he says there is also another way of deriving the word vatakrami. This is kvibanta. Kvip iti pratyaha asti. Idanim kim bhavati? Vata iti upapadam. Pra iti upasargaha. Mi himsayam iti dhatu. The dhatu is mi. Okay? It belongs to the kriyadi. The ninth gana. Ubhayapadi anit dhatu. Asya dhatu. Vata prami iti sthite kvip pratyaha kriyate. क्विप् इस् अ नार्मल् कृदन्त कृत् प्रत्ययः अन्येभ्योऽपि दृश्यते इति सूत्रेण क्विप् इति प्रत्ययः क्रियते क्विप् प्रत्यये कृते क्विप् प्रत्यये ककारः इत् लशक्वदधिते इत्यनेन ककारस्य इत्सम्य पकारस्य हलन्त्यमिति इत्सम्य इकारस्य उपदेशे धनुनासिक इति इत्सम्य केवलं वकारः शिष्यते तस्य वकारस्यापि वेरप्रत्यस्य इत्यनेन लोपः सो क्विप् इस् अ वेरि स्पेशल् प्रत्ययः इन् दट् Nothing is heard of the suffix. The suffix gets completely deleted. In some cases, it may give rise to some karya for prakriti. Or in other cases, the prakriti remains as it is, but is a kridanta now. So like here, vata prami ityava asti. Vata prami dhatuhu tathaiva tishthati. Kintu ayamidani kridantaha. Vera praktasya iti vakarasya lope vata prami iti shabdaha. So what is the difference between this and the previous one? Purvatra ikaraha pratyasya ikaraha madhatuhu e pratyaye krute akara lope mi iti jatam ikaraha pratyasthaha atratu dhatuhu ikaraha the ikara belongs to the dhatu right so tada yada dhatuhu ikaraha tada kashchana visheshaha drishyate kaha visheshaha iti chet eranekachaha iti vakshyamanaha yena pradhivat So it says, there is a sutra which he will take up later. It is called Eranekacho Sanyoga Purvasya. By that we get a Yanadesha. So this Vataprami Shabda we will deal later. Kim Bhavati iti Anantaram Pashyamaha. We will see after we deal with Eranekachaha, we will come across another word called Prathi. Okay? So for now, E Pratyayanta Vataprami Shabdasya Sarvatra Iko Enachi iti Yanadeshaha. Clear? With that we can go on. बह्व्यः श्रेयस्यः यस्य सः द नेक्स्ट् टैप् आफ् ईकारान्तपुल्लिङ्ग इस् बहु श्रेयसि वेरप्रुक्तस्य इत्यस्य विषये सन्देहः पृच्छताम् can I mute you, unmute you. Hello. Tell me, sir. वेहे इति किमर्थम् इति वा यत्र क्विप् अथवा क्विन् वेन् द बकार इस् अ पार्ट् आफ् क्विप् आर् क्विन् दट् इस् वै इण्डिकेट् दिस् एस् वि वेन् द इनिशियलि द सिलबल् वास् हर्ड् एस् वि सो हि सेस् वेहे बट् इट् इस् नौ अपृक्त दट् इस् ओन्ली वकार इस् हर्ड् अपृक्त एकाल् प्रत्ययः सो ओन्ली दट् वकार इस् हर्ड् इनिशियलि इट् हेस् टु बिलाङ्ग् टु इदर् क्विप् आर् क्विन् दट् इस् वै हि सेस् वेहे अपृक्त Vasuji? Quip and Quin has a difference in that there are some sutras which will apply only if it is Quin. For example, there is a sutra called Quin Pratyasya Kuhu. If it is Quin Pratyayanta, then there is Kutva. So, he has made a differentiation. So, if it ends with Quin, there are particular karyas which would apply. And similarly, if Quip is Pit, if it is, if Pakara is It, then also there is something which would apply. So there is a difference in both the anubandha and the pratyaya itself. The karya would vary. Even though the pratyaya does not remain, the karya would vary depending on if it is quip or quin. Quip is a general pratyaya which is for all dhatus. I mean, there is a sutra anebhya pirushyate. Quip is generally the technique for converting any dhatu into a pratipadika. I mean, for any dhatu you can add quip pratyaya. Since the pratyaya is sarvapahari lopa, the dhatu remains as it is, but it is now a pratipadika. We see that in halantas. It says, ledhi iti lit lihau lihaha. So somebody who licks itself, the dhatu is lih, pratipadika is also lih. You have added quip. Similarly, you have duh and duh. There are techniques. But quin pratyaya is not all inclusive. You cannot add quin to all dhatus. Quin is added to particular dhatus in a particular sense. Whereas quip is added in kartrartha. So anybody who in kartrartha, kartrartha means somebody who does a karya. For example, karoti iti, you have karta, karakaha. Similarly, you can have something like krit. And ledhi or dogdhi iti dhuk. So you can go on. You can add quip pratyaya to any dhatu, but quin pratyaya is added to particular dhatus in particular meanings, particular sense. No. Quin is for particular idu. For particular words, dhatus only. Generally. You have one example is druk drushav drushav, where you have drish for the drish dhatu, add quin. Okay, I don't currently remember the sutra for adding the quin. But it is pretty limited compared to quip. Oh yes, no problem. So quin, I'll look it up and tell you the sutra. I don't remember the sutra at present. Quin. I'll have to look at it. Okay. 258. Thank you, Pankaj. What is the Sprishona the cake winner? The twig, the drip, srak, dig, ushnig, anchu, yuji, krinchancha. So it's only two sutras which give kvin pratyaya. One is sprishaha, sprishati. So you have sprik, sprishau, sprishaha. There you have this. And again the next one you have ritvik, dadhrik, srak, dik, ushnik, anchu, yuji, krincha. So it just makes a list of words. So for these particular words you have kvin. Kvin pratyaya nipatyate vastataha. He says these are all kvinantas. So since they are kvinantas, there are particular karyas. Any other questions? Okay. So let's move on to the next word. This bahushreyasi. Iti ikarantaha pullingaha bahushreyasi shabdaha. Kaha arthaha bahvyaha shreyasyaha yasya saha. He who has many shreyasi means how do you say? Shreyas is something good which is happening, or any suggestions for an English word? It's not a quality. It's not quality or guna. Shreyas is it could also be a quality. It is derived from a word called prashasta, that which is excellent. Okay. So he who has many excellent qualities, correct? That would be correct. Yeah. So ityarthe bahushreyasi iti samasaha. So again we have to look at the vyutpatti of this word. Bahvi, how do we have bahvi? Bahu ityasya strilinge bahvi iti bhavati. Bahu ityasmat nish iti stri pratyaha kriyate. Bahvadibhyascha iti sutrena. Tena yanadeshe bahvi iti strilinge bahvyaha. Bahvi bahvyau bahvyaha. Gauri gauryau gauryaha iti vate bahvi bahvyau bahvyaha. Shreyasyaha iti katham. Ati prashasta, that which is very praised, well praised. Right. So ati prashasta iti arthe, prashasya iti shabdat, iyasun iti pratyaha kriyata. So this is a taddhita word. Shreyasi iti taddhitantam. Prashasya iti asmat, iyas. Iyas is a pratyaya which is like tarap. You say taturaha, chaturataraha, which is your, what is that? Comparative degree, right? So comparison between two people, you have es. Like you have tarap, you also have a es pratyaya. For example, you have gariyas, gariyaha, daviyaha, kaniyaha. There are many words which use esun pratyaya, which means he is the either bigger of the two or younger of the two, etc. Kaniyaha means kaniyan is younger. Gariyan is that which is greater, and so on. So prashasya iyas iti iyasun pratyaya kriyate. Prashasyasya shraha iti sutrena. Prashasya iti shabdasya shra iti adesha kriyate. So the word prashasya itself is replaced by shra. Shra iyas gune krate shreyas iti pullinge. Tasya strilinge apekshite shreyas ityasmat neep pratyaya kriyate. So you add the suffix neep, you have e, ugitashchaityanena neep pratyaye, shreyasi iti bhavati. Shreyasi, shreyasyau, shreyasyaha, bahvyaha, shreyasyaha. What you have to remember here is shreyasi is a neep pratyayanta. So strilinga, neep is a stri pratyaya, shreyasi iti stri pratyayantam. Clear? Once we have that, bahvi shreyasi ityanayohu, bahuvrihi samasaha kriyate. Bahvyaha shreyasyaha yasya saha. Anyapadartha pradhane anekam anyapadarthe iti sutrena bahuvrihi samasaha. Bahuvrihi samase supratyayasya lopaha bhavati supodhatu pratipadikayohu. We have actually bahvi shreyasi. Purva padasya idanim pumvadbhavaha kriyate. So there is a special technique called pumvadbhava, where the strilinga word becomes like pum. Pumvat. It is converted to a pullinga form. I mean to a form which is like pullinga. You have bahvi, the form in pullinga is bahu. So bahvi becomes bahu. in some samasa there are conditions, lots of conditions. Bahu shreyasi, bahu iti bhavati. Striyah kumbad bhashita pumskad anu samanadhikarane striyam apurani priyadishu. So it's a long sutra with a number of conditions. When all these conditions are satisfied, the strilinga word is converted to a pullinga, to a form like pullinga. So bahvi ityasmal bahu iti bhavati. Bahu shreyasi ityasti. Now actually the shreyasi should become hraswa. We have already seen nishkausham vihi ati khatvaha gostriyor upasarjanasya ityanena stri pratyantam padamasti chet samase ante yadi upasarjanatvam asti tada hraswaha bhavati. Generally we have a hraswa for a stri pratyanta word. It rarely stays as dirgha. Here also we should actually get hraswa, but iyaso bahuvrihehe na iti vachyam iti vartikam. So if it's an iyasun pratyayanta word in bahuvrihi, there is no hraswa, upasarjana hraswa, so it doesn't get the hraswatva. That is why this particular word was chosen by Dikshitar as an example. There are very few words which are stri pratyayantas and which stay as dirghai ikaranta. Now this is one such word, bahushreyasi iti ikarantaha pullingaha. So you have to notice that bahushreyasi is pullinga, but the shreyasi part of it is a strilinga word originally and it is a neep pratyayanta. Okay. So once you remember that, asya pratipadikatvam asti samasatvat kriptadhir samasascha iti pratipadikatve idanim supratyayaha kriyante. Now we have to add supratyayas to this, right? So bahushreyasi su supratyayaha kriyate kim bhavet vataprami ityatra kim abhut rutvam visarkaha vataprami atra kim bhavati. Kim bhavet, any ideas? Should we do rutva visarga here also? Or is there any other sutra which we can apply? What, Suji? No. There is no hraswa at all. Hraswa will not apply because of the nishedha. So it is a dirgha. No. It would have been a hraswaikara in the absence of that vartika. But since that vartika prevents the hraswatva, it is a dirgha. Any ideas? So, sulopaha. Hal nyabhyo dirghat sutisya praktam hal. So, we saw this sutra where did we come across hal nyabhyo dirghat? Sakha. You have sakhan and su. So, there is a hal. Halanta. Halantat parasya supratyasya lopaha. Right? So, there we also have hal ni abhyaha. Right? Hal jnabhyaha dirghat sutisya praktam hal. Do you remember the sutra? Hal ni abhyaha halantat nyantat abantat. Kidrisham nyantam dirghau yau nyantau nyapau kadantat chaparam su tisi ityetad apriktam hal lupyate. Aprikta ekal pratyaha yatra eka eva al. Eka varanatmakaha pratyaha asti yatha atra supratyaha. Bahushreyasi su ityasti ayam nyantaha. Now this is nyanta, this is dirgha. Dirgha nyanta, this is aprakta. So now we can delete the supratyaya. Dirgha nyantatvat halnyap iti sulopaha. So Dikshita's panktis are very very precise. Okay? Makes it very clear. Halnyap iti sulopaha. Kim nimittam dirgha nyantaha. It is dirgha. It is also nyanta, so we can use halnyabhyo dirghat sutisya praktam hal इत्यनेन सुप्रत्ययस्य लोपः क्रियते. दिस् इस् द फस्ट् डिफ्रेन्स् बिट्वीन् वातप्रमीः अण्ड् बहुश्रेयसि. इन् वातप्रमीः द ईकार वास् डिरैव्ड् फ्रम् अ प्रत्यय, इट् इस् नाट् ण्यन्त. दट् इस् वै वि केनाट् अप्लै दिस् सूत्र देर् हियर्. सिन् श्रेयसि इस् अ ण्यन्त अण्ड् दीर्घ, अनेन सूत्रेण सुप्रत्ययः लुप्यते. बहुश्रेयसि इति प्रथमाविभक्तौ एकवचने, बहुश्रेयसि औ अत्र किमपि नास्ति, बहुश्रेयस्यौ इकोयणसि इति अणादेशः, बहुश्रेयस्यः, बहुश्रेयसि, बहुश्रेयस्यौ, बहुश्रेयस्यः. नेक्स्ट् यु हाव् सम्बोधनं, हे बहुश्रेयसि सु इत्यस्ति, तत्र किं भवेत् इति चेत् तत्र दिस् इस् द सेकेण्ड् स्पेसिफिक् आर् स्पेशल् थिङ्ग् अबौट् बहुश्रेयसि. यू स्त्र्याख्यौ नदी इति सूत्रं, पदत्रयं विद्यते, यू स्त्र्याख्यौ नदी, संज्ञासूत्रमिदं. सो दिस् इस् संज्ञासूत्र, विच् इस् द संज्ञा काल्ड् नदी. नदी इस् अ टेक्निकल् टर्म् आफ् ग्रामर्, इट् डस् नाट् मीन् अ रिवर् इन् दिस् सेन्स्. व्याकरणशास्त्रे नदी इत्यनेन, नदी इति काचन संज्ञा, विशिष्टा संज्ञा, का संज्ञा इति अनेन सूत्रेण ज्ञायते. यू स्त्र्याख्यौ नदी, यू इत्यस्य कः अर्थः, ई ऊ, ईकारः उकारश्च, अनयोः ई ऊ इति स्थिते इकोयणसि इत्यनेन यणादेशे यू इति भवति. ईकारः दीर्घ ईकारः दीर्घ ऊकारः इत्यर्थः. यू ईदूदन्तौ ईकारान्त ऊकारान्तौ नित्यस्त्रीलिङ्गौ स्त्र्याख्यौ स्त्री आख्यायस्य सह. सो दट् विच् इस् आल्वेज् मेण्डेटरिली अ स्त्रीलिङ्ग वर्ड्, एन् ईकारान्त आर् ऊकारान्त वर्ड् विच् इस् आल्वेज् इन् स्त्रीलिङ्ग इस् काल्ड् नदी. नदी इस् अ संज्ञा विच् इस् गिवन् टु ईकारान्त आर् ऊकारान्त विच् इस् वर्ड् विच् इस् आल्वेज् इन् स्त्रीलिङ्ग. फेमिनिन् वर्ड् एण्डिङ्ग् इन् ईकारान्त आर् ऊकारान्त इस् काल्ड् नदी. तेन श्रेयसि, इन् आर् केस् यु हेव् बहुश्रेयसि. श्रेयसि इस् अ नित्यस्त्रीलिङ्ग. श्रेयस् इत्यस्मात् ङी प्रत्ययः क्रियते, प्रत्यये कृते सः स्त्रीप्रत्ययः, तत्पदञ्च स्त्रीलिङ्गमेव. सो सिन्स् इट् इस् अ स्त्रीप्रत्ययः, श्रेयसि इस् आल्वेस् स्त्रीलिङ्ग, नित्यस्त्रीलिङ्गः, ईकारान्तः. सो अनेन नदी इति संज्ञा भवति. सो द वर्ड् श्रेयसि विल् गेट् नदी संज्ञा बै दिस् सूत्र. बट् विल् बहुश्रेयसि गेट् नदी संज्ञा? ईस् बहुश्रेयसि नित्यस्त्रीलिङ्ग? बहुश्रेयसि इत्यस्य अनेन सूत्रेण नदी संज्ञा भवति वा? नो, रैट्, आब्वियस्लि इट् शुड् नाट्, बिकास् वि आर् डीलिङ्ग् वित् एन् इकारान्त पुल्लिङ्ग. बहुश्रेयसि इति पुल्लिङ्गशब्दः, पुल्लिङ्गे अस्माभिः पाठ्यते. कथं तर्हि नदी संज्ञा? केवलस्य श्रेयसी शब्दस्य नदी संज्ञा अस्तु नाम, बहुश्रेयसि इत्यस्य तु नदी संज्ञा न भवति. सिन्स् इट्स् बहुव्रीहि, इट् इस् नाट् नित्यस्त्रीलिङ्ग, इट् केन् बि स्त्री हुं नपुंसक एनिथिङ्ग्. तदा वार्तिकं विद्यते, प्रथमलिङ्गग्रहणञ्च इति वार्तिकं. कः अर्थः? पूर्वं स्त्र्याख्यस्य उपसर्जनत्वेपि इदानीं नदीत्वं वक्तव्यम् इत्यर्थः. सो वाट् डस् आख्या मीन्? वेल् इट् हेस् देर् इस् अ लाट् आफ़् डिस्कशन् अबौट् इट्. फार् नौ इट् मीन्स् दट् बै विच् ओन्ली अ स्त्रीलिङ्ग इस् आल्वेस् इण्डिकेटेड्. स्त्री आख्या यस्य सः, दट् वर्ड् बै विच् द फार् विच् द अर्थ इस् आल्वेस् इन् स्त्रीलिङ्ग इस् स्त्र्याख्या. टु पुट् इट् वेल्, पूर्वं स्त्र्याख्यस्य उपसर्जनत्वेपि इदानीं नदीत्वं वक्तव्यम् इति वार्तिकस्य अर्थः. फार् ए वर्ड् दट् वास् इनिशियलि स्त्र्याख्य, दट् इस् नित्यस्त्रीलिङ्ग, इफ् अ वर्ड् वास् इनिशियलि नित्यस्त्रीलिङ्ग, उपसर्जनत्वे अपि, इवन् इफ् इट् हेस् नौ बिकम् उपसर्जन समथिङ्ग् एल्स्, इदानीं नदीत्वं वक्तव्यं. नौ इट् विल् गेट् नदी संज्ञा बै दिस् वार्तिक. एस् इन् श्रेयसि, श्रेयसि इत्यस्य उपसर्जनत्वे, बहुश्रेयसि इत्यस्य इत्यत्र उपसर्जनत्वेपि नदी संज्ञा भवति इति अनेन वार्तिकेन बहुश्रेयसि इत्यस्य नदी संज्ञा भवति. by use dhyakhyo nadi, we cannot get nadi samya for bahushreyasi. But since the Vartika says prathama linga grahanam, so for linga we always take the first linga, that is the initial linga of that ending word. So by that, even for bahushreyasi, we can have nadi samya. Nadi samya bhavati chet kim? So what if it has nadi samya? He bahushreyasi su iti sthita ambartha nadyor hrasvaha iti sutram. Padadvayam vidyate ambartha nadyohu hrasvaha sambuddhau cha iti sutrata sambuddhau iti anuvartate sambuddhau parataha ambartha nadyohu ambarthanam nadyantanam cha shabdanam hrasvaha bhakti ambarthanam. अंबा नाम मात्र माचकाना यथा अंबा इत्येव शब्दः अस्ति. रमा शब्दस्य संबोधने रमे हे रमे इति भवति. अंबा शब्दस्य तु हे अंब ह्रस्वः भवति अनेन सूत्रेण. जगदंब मदंब इत्यादि. सो अंबार्थानां नद्यन्तानां यत्र नदी संज्ञा अस्ति तादृशां शब्दानां ह्रस्वः भवति संबुद्धौ परतः. सो हे बहुश्रेयसि सु ईकारस्य ह्रस्वः अम्बार्थ नद्योर् ह्रस्वः शुड् बि नद्योः ह्रस्वः इति सूत्रेण. ह्रस्वे कृते किं भवेत्? एङ् ह्रस्वात् सम्बुद्धेः. एङ्गन्तात् ह्रस्वान्ताच्च अङ्गात् हल्लुप्यते सम्बुद्धेश्चेत्. एङन्तत्वं नास्ति, ह्रस्वान्तत्वमस्ति. एङ् ह्रस्वात् सम्बुद्धेः इति सूत्रेण सम्बुद्धेः लोपे हे बहुश्रेयसि. दिस् इस् हौ यु गेट् हे नदी, हे गौरी. सर्वेषाम् ईकारान्तानां ह्रस्वः भवति. सुनौ बहुश्रेयसि, बहुश्रेयस्यौ, बहुश्रेयस्यः. हे बहुश्रेयसि इति ह्रस्वः. हा, ऐ नोटिस् शुड् बि अम्बार्थ नद्योः ह्रस्वः, नाट् नयोः. द दकार हस् बीन् मिस्ड्. हे बहुश्रेयसि, हे बहुश्रेयस्यौ, हे बहुश्रेयस्यः. बहुश्रेयसीम् अत्र तु व्यत्ययः नास्ति. बहुश्रेयसीं, बहुश्रेयस्यौ, बहुश्रेयसीन् अत्र तु समानम्. अमिपूर्वः इति पूर्वरूपं, पूर्वसवर्णः नत्वं. बहुश्रेयसीन् तृतीया विभक्तौ अपि बहुश्रेयसी आ इत्युक्ते यणादेशे बहुश्रेयस्या, बहुश्रेयसीभ्यां, बहुश्रेयसीभिः. सो आल् दीस् आर् रेडी, ऐ मीन् देर् इस् नथिङ्ग्, नो स्पेशल् कार्यं. बहुश्रेयसीभिः, बहुश्रेयसी ए. अत्र किं भवेत्? ने प्रत्यये. वस्तुतः इको यणचि इत्यनेन यणादेशः करणीयः, किन्तु अस्य नदीसंज्ञा अस्ति इति उक्तत्वात् नदीसंज्ञाप्रयुक्तं विशिष्टं कार्यं विद्यते. स्पेशल् कार्य फार् नदीसंज्ञा आण् नद्याः इति अग्रिमं सूत्रम्. परद्वयम् आट् नद्याः कस्सन्धिः, विस् इस् अ सन्धि इन् आण् नद्याः. ప్లీజ్ వేరే శబ్ద ప్రకరణ. సో అట్లీస్ట్ ఫార్ సంధి ప్రకరణ దెర్ షుడ్ బి రేస్డ్ హ్యాండ్స్ బై ఎవ్రీబడి. హీరాలాల్జీ హలో. Anybody other than Masuji? He's been answering all questions today. Somebody else. This is Sandhi. Art Nadyaha. I have given both the Vigraha and the Sandhi. Kas Sandhi? Itteva Prashnaha. No, this is not Stitva. ಚುತ್ವ ದಿಸ್ ಇಸ್ ನಾಟ್ ಇವನ್ ಶುತ್ವ ರೈಟ್ ಸೊ ಯರೋನು ನಾಸಿಕೇನು ನಾಸಿಕೋವಾ ಯರಹ ಅನುನಾಸಿಕೆಯ ಪರೆ ಅನುನಾಸಿಕ ಆದೇಶ ಸ್ಯಾತ್ ಸೊ ವೆನ್ ಟ ಇಸ್ ಫಾಲೋಡ್ ಬೈ ನಕಾರ ಇಟ್ ಗೆಟ್ಸ್ ಅನುನಾಸಿಕ ಆದೇಶ ಸೊ ಇಟ್ ಬಿಕಮ್ಸ್ ಆಣ್ ಮಧ್ಯಾಹ ನೆಕ್ಸ್ಟ್ ಕ್ವೆಶ್ಚನ್ ಸಂಬಡಿ ಸೆಟ್ ಶ್ರುತ್ವ ವೈ ಡಸ್ ನಕಾರ ನಾಟ್ ಗೆಟ್ ಶ್ರುತ್ವ ಆಕ್ಚುಲಿ ಇಟ್ ಇಸ್ ನಕಾರ ವಿಚ್ ಕುಡ್ ಗೆಟ್ ಶ್ರುತ್ವ ಷ್ಟುನಾಷ್ಟು ಸ್ತೋಹ ಸಕಾರಟವರ್ಗಯೋ ಷಕಾರಟವರ್ಗಾಭ್ಯಾಂ ಯೋಗೆ ಷಕಾರಟವರ್ಗೋ ಸ್ತಃ ಸೊ ದ ನಕಾರ ಶುಡ್ ಆಕ್ಚುಲಿ ಬಿಕಮ್ ನಕಾರ ರೈಟ್ ಇಟ್ ಶುಡ್ ಬಿ ಆಣ್ ನದ್ಯಾಹ ಸೊ ವೈ ಡಸ್ ಇಟ್ ನಾಟ್ ಗೆಟ್ ಶ್ರುತ್ವ ಕಿಮರ್ಥಂ ಶ್ರುತ್ವ ನ ಕೃತಂ ಪದಾಂತಾತ್ ತೋರಣಾಂ ರೈಟ್ ಇಟ್ ಇಸ್ 8442 ಸೊ ನ ಪದಾಂತಾತ್ ಟೋಹು ಪದಾಂತಾತ್ ಟವರ್ಗಾತ್ ಪರಸ್ಯ ಟವರ್ಗಸ್ಯ ಶುತ್ವಂ ನ ಸ್ಯಾತ್ ಸೊ ಇಫ್ ದೇರ್ ಇಸ್ ಅ ಟವರ್ಗ್ ಅಟ್ ದ ಎಂಡ್ ಆಫ್ ಎ ಪದ ದಟ್ ಇಸ್ ವೈ ಟೋಲ್ಡ್ ಇಟ್ ಇಸ್ ಟೂ ವರ್ಡ್ಸ್ ಆಟ್ ನದ್ಯಾಹ ಆಟ್ ಇತಿ ಪೃಥಕ್ ಪದಂ ನದ್ಯಾಹ ಇತಿ ಪೃಥಕ್ ಪದಂ ಸೊ ಪದಾಂತೆ ಟವರ್ಗಃ ಅಸ್ತಿ ಚೇತ್ ಶುತ್ವಂ ನ ಭವತಿ So it is why the takara gets anunasika by yaronunasika anunasikova, but the nakara will not get shtutva. Okay. So, an nadyaha, at nadyaha, nadyaha, nadi samyakasya, nadi samyakat parasya, nadyaha iti panchami, at gher niti, iti niti iti anuvartate, gher niti iti sutrate. So, ನದ್ಯಂತಾತ್ ಪರೇಷಾಂ ನಿತಾಂ ಆಡಾಗಮಃ ಸ್ಯಾತ್ ಸೊ ವೆನ್ ಅ ವರ್ಡ್ ವಿತ್ ನದಿ ಸಂಜ್ಞ ಇಸ್ ಫಾಲೋಡ್ ಬೈ ಎ ಣಿತ್ ಪ್ರತ್ಯಯ ಪ್ರತ್ಯಯ ಣಿತ್ ಙೆ ಣಸಿ ಣಸ್ ಣಿ ಇತಿ ಚತ್ವಾರಃ ಣಿತ್ ಪ್ರತ್ಯಯ ತೇಷು ಪರೇಷು ತೇಷಾಂ ಪ್ರತ್ಯಯಾನಾಂ ಆಟ್ ಇತಿ ಆಗಮಃ ಭವತಿ ಸೊ ವಿ ಗೆಟ್ ಅನ್ ಆಟ್ ಆಗಮ ಫಾರ್ ಅ ಣಿತ್ ಪ್ರತ್ಯಯ ವಿಚ್ ಇಸ್ ಫಾಲೋಯಿಂಗ್ ಅ ವರ್ಡ್ ವಿತ್ ನದಿ ಸಂಜ್ಞ ನದ್ಯಂತಾತ್ ಪರೇಷಾಂ ನಿತಾಂ ಆಡಾಗಮಃ ಭವತಿ ಕುತ್ರ ಭವೇದ ಆಡಾಗಮಃ ಹೌ ಡು ವಿ ಡಿಸೈಡ್ ದ ಪೊಸಿಷನ್ ಆಫ್ ಅನ್ ಆಗಮ ಆದ್ಯಂತೌ ಟಕಿತೌ ಟಿತ್ಕಿತೌ ಯಸ್ಯ ಉಕ್ತೌ ತಸ್ಯ ಕ್ರಮಾತ್ ಆದ್ಯಂತಾವಯವೌ ಸ್ತಃ ಟಿತ್ ನಾಮ ಆದ್ಯವಯವ ಕಿತ್ ನಾಮ ಅಂತಾವಯವ ಸೊ ಪ್ರತ್ಯಯಸ್ಯ ಆದೌ ಭವತಿ ಆಡಾಗಮಃ ಬಹುಶ್ರೇಯಸಿ ಎ ಇತಿ ಸ್ಥಿತೆ ಪ್ರತ್ಯಯಸ್ಯ ಆದೌ ಬಹುಶ್ರೇಯಸಿ ಆ ಎ ಆಟ್ ಇತ್ಯತ್ರ ಟಕಾರಸ್ಯ ಇತ್ತಮಸ್ತಿ ಹಲಂತ್ಯಮಿತ್ಯನೇನ ಇತ್ ಸಮ್ಯ ಸೊ ಬಹುಶ್ರೇಯಸಿ ಆ ಎ ಸ್ಥಿತೆ ಇದಾನಿ ವೆನ್ಎವರ್ ದೆರ್ ಇಸ್ ಆಟ್ ಸೊ ಅಲಾಂಗ್ ವಿತ್ ಇಟ್ ದರ್ ಇಸ್ ಅ ಸೂತ್ರ ವಿಚ್ ಕಮ್ಸ್ ಅಲಾಂಗ್ ವೆರ್ ಎವರ್ ವೆನ್ ಎವರ್ ದೆರ್ ಇಸ್ ಆಡಾಗಮ ಇಮಿಡಿಯೇಟ್ಲಿ ವಿ ಅಪ್ಲೈ ಆಟಶ್ಚ ಆಟ ಇತ್ಯೇವ ಭವತಿ ಆಟ ಚ ಕಿಂ ಭವತಿ ಆಟ ವೃದ್ಧಿರೇಚಿ ಇತ್ಯತಃ ವೃದ್ಧಿ ಇತಿ ಅನುವರ್ತತೆ ಇಕೋಯಣಸಿ ಇತಿ ಸೂತ್ರಾತ್ ಅಚಿ ಇತಿ ಅನುವರ್ತತೆ ಆಟ ಅಚಿ ಪರೆ So when art is followed by any ach, vriddhi hi ekadesha ha syat. Vriddhi, it gets vriddhi, will replace both that purva varna and the ach. So as soon as we do adagama, we have to apply atascha. As long as there is a swara. There are very few cases where there is no swara. So if there is a swara, we apply atascha. So idani bahushreyasi a e iti adagama ha krita ha. Vriddhi karaniyaha akara ekara yohu vriddhi hi. ಕಹ ಭವೇತ್ ವಾಟ್ ವಿಲ್ ಬಿ ದ ವೃದ್ಧಿ ಫಾರ್ ಆಕಾರ ಆಂಡ್ ಏಕಾರ ಐಕಾರ ವೃದ್ಧಿರಾದ ಇತ್ಯನೇನ ಆಕಾರ ಐಕಾರ ಔಕಾರಯೋಃ ವೃದ್ಧಿ ಸಮ್ಯ ಅಸ್ತಿ ಅಂತರತಮ್ಯಾತ್ ಆಕಾರ ಏಕಾರಯೋಃ ಸ್ಥಾನೆ ಐಕಾರಃ ವೃದ್ಧಿ ಸೊ ಬಹುಶ್ರೇಯಸಿ ಐ आटश्च इत्यनेन वृद्धिः. सो इदानीम् इको यणति इत्यनेन यणादेशे बहुश्रेयस्यै इति रूपं. श्रेयसि ऐ श्रेयस्यै. सो बहुश्रेयसि ए इति स्थिते आण्नद्याः इत्यनेन आडागमः, आटश्च इति वृद्धिः, इको यणचि इत्यनेन यणादेशः बहुश्रेयस्यै गौर्यै रमायै. रमायै इस् नाट् दिस् सारि इट् इस् याडापः. सो यु हाव् गौर्वै गौर्यै आर् नद्यै आर् वध्वै. सो एव्रिवेर् यु गेट् आडागम फार् एनी वर्ड् विच् हेस् अ नदी संज्ञा. बहुश्रेयस्यै बहुश्रेयसीभ्यां बहुश्रेयसीभ्यः इति तु समानम्. सो ऐ थिङ्क् विल् स्टाप् हियर् फार् टुडे. Any time, any questions? We'll continue with the other form in next class. Okay, if nobody has a question, I will raise a question. आ ए बहुश्रेयसि आ ए इत्यस्ति. अत्र आटश्च इत्यनेन वृद्धिः कृता. वै कान्ट् वि जस्ट् अप्लै वृद्धिरेचि? आद् एचि परे वृद्धिः एकादेशः स्यात्. यु हाव् आट्, यु हाव् एच्. सो वै डोण्ट् बि सिम्प्लि अप्लै वृद्धिरेचि? आटश्च इस् मोर् स्पेसिफिक् करे, बट् वै दिट् माणिनि मेक् ए स्पेसिफिक् सूत्र वेन् ही कुड् हेव् अचीव्ड् अ जाब् वित् अ जनरल् सूत्र. वृद्धिरेचि इत्यनेन एव कार्यसिद्धे, किमर्थं पृथक् सूत्रं निर्मातव्यम्? एकः पूर्वपरयोः इति तु वृद्धिरेचि इत्यस्यापि अस्ति. एकः पूर्वपरयोः अप्लैस् फार् वृद्धि आल्सो. वृद्धि इस् आल्सो एकादेश. So maybe we should read. Nyayatvad upanyastam. So this is, see, this is how you should, I mean, you should get questions and then go into Vyakhyanas to read it. Right? So I brought this question up for that. So he says, what does the Vyakhyakara say? Yadyapi iha vriddhirechi ityeva siddham. So here actually we can manage using vriddhirechi. But tathapi aikshat ityadyartham sutram. He gives other examples where his point is, true that here we have vriddhirechi. You have a which is followed by an h. But this, the following letter need not always be h. Right? It could be an ikara or an ukara. For example, the example he gives is aikshat. A ikshat. Iksh dhatuho. Iksh dhatuho langukaraha. Aadagamaha kriyate. Aadajadinam ityanena. A e ityasti. Idanim kim bhavati atra? Gunaha bhavati. Vriddhihina bhavati. It would not give vritti and it would not give the required form. It would give ekshat while we require aikshat. So that is why ityadyartham sutram. That is why atashcha was made. Atashcha was not for this purpose. Atra tu vyatyayah na bhavati. Whether we use vrittirechi or in the next case if we use savarna dirgha, we get the form, desired form. Kintu yatra echvarna nasti tatra api vritti hi ishyate. Tadartham prathaktaya atashcha sutram nirmitam ihapi nyayatvad upanyastam. So if once the sutra is there, I have told you this earlier, it will apply wherever it can. It does not mean, okay, here let somebody else do the job. So Atashta will not think, okay, anyway Vriddhireshi can apply, so let it do the job. That is not how the sutra behaves. Wherever the conditions are satisfied, it will apply. So do we apply Vriddhireshi or Atashta? It is Parasutra and it is a specific sutra, so we apply Atashta everywhere that there is art. Even if we could have done the job by something else, right? So the actual purpose of the sutra was to bring Vriddhi where there is no H, where Vriddhireshi cannot apply. Even there, if there is an Ikara or Ukara following Akara, there also we get Vriddhi, right? Any questions? येनाक्षरसमां नयमधिगम्य महेश्वरात् कृत्स्नम्नाकरणं प्रोक्तं तस्मै पाणिनये नमः. त्रयं नमस्कृत्य तदुक्तिः परिभाव्य च वैयाकरणसिद्धान्तकौमुदीः विरच्यते.